ततः अष्टोत्तरशतैर्दिव्यैर्गणेशस्यैव नामभिः कर्तव्यमति यत्नेन नवदूर्वाङ्कुरार्पणम्। ऋषिर्विघ्नेश इत्यादिनाम्नां सर्वेश्वरः शिवः देवता विघ्नराजोऽत्र छन्दोऽनुष्टुप् शुभप्रदम्। शमनं फलं शक्तिः सुधात्मिका कीलकं गणनाथस्य पूजाकार्येति कामदा। विघ्नेशो विश्ववदनो विश्वचक्षुर्जगत्पतिः हिरण्यरूपस्य सर्वात्मा ज्ञानरूपो जगन्मयः। गणाध्यक्षो गणाराध्यो गणेशो गणनायक ज्योतिस्वरूपो भूतात्मा धूम्रकेतुरनाकुल कुमार गुरुरानंद हेरंबो वेद संस्तुतः नागोपवीति दुर्धर्षो बाल दुर्वांकुर प्रियः बालचंद्रो विश्वधामा शिवपुत्रो विनायकः लीलावलंबित वपु पूर्णः परम सुंदरः विद्यांधकार मार्तंडो विघ्नारण्य दवानल सिंदूरवदनो नित्यो विष्णु प्रमथ पूजितः शरण्य दिव्य पादाब्जो भक्त मंदार
कल्पये दिष्टं गणेशाय
परमान्नाद्यैर्भक्षैर्भोज्यैर्मनोहरैः तोषणीय प्रयत्नेन वक्रतुण्डो विनायकः प्रदक्षिणनमस्कारा दिव्यतन्नाम संख्यया कर्तव्यानियतं शुद्धैर्मौनव्रतपरायणैः ततः संतर्प्य विधिवत् क्षैवान् ब्राह्मण सत्तमान् पुनरभ्यर्च विघ्नेशमिमं मन्त्रमुदीरये
आज्येन कापिलेनैव नैव
सकलक्षत्रयाहुतिः हुत्वै तन्नामभिः सम्यक् सर्वविद्याधिपो भवेत्। एतानि दिव्यनामानि प्रतिवासरमादरात् पठित्वा गणनाथस्य पूजाकार्याम्।